अनिता भगिनी पठति वा प्रथमं 2, 3 and 4 किञ्चित् उच्चैः वदतु भगिनि.
महोदय नमस्कारः. महोदय
नमस्कारः.
भवान् शिष्यः, भवन्तौ शिष्यौ, भवन्तः शिष्याः, भवान् दाता, भवन्तौ दातारौ, भवन्तः दातारः, भवती गायिका, भवत्यौ गायिकौ, भवत्यः गायिकाः.
पुनः वदतु.
भवती गायिका, भवती गायिका, भवत्यौ गायिकौ, भवत्यौ गायिके, सीता 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 गायिके, भवत्यः गायिका, गायिकाः.
सम्यक्, धन्यवादः भगिनि. अपर्णा भगिनी अग्रिमत्रयं करोतु.
आं महोदय, नमस्कारः महोदय. भवती सखी, भवत्यौ सख्यौ, भवत्यः सख्याः, भवती माता.
एकनिमिषं, बहुवचने किम् अस्ति?
सख्याः.
नदी वदतु.
नदी, नद्यौ, सो नद्यः, ओके, सख्यः, सख्यः, सो इट्स नाट् वित् अ आय, सख्यः. सो भवती सखी, भवत्यौ सख्यौ, भवत्यः सख्यः. नेक्स्ट् वन्, भवती माता, भवत्यौ माते, भवत्यः मातरः.
अत्र अपि दिस् इस् अ रिकारान्त वर्ड्, ओके. सो माता, मातरौ, मातरः.
ओ मातरौ, ओके.
मातरौ, मातरः, माता, मातरौ, मातरौ, मातरः,
ओके. भवती माता, भवत्यौ मातरौ, भवत्यः मातरः. अहं सैनिकः, आवां सैनिकौ, वयं सैनिकाः.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः महोदय.
बालकृष्णमहोदय, भवान् करोतु अग्रिमत्रयम्.
अहम् आचार्यः, आवाम् आचार्यौ, वयम् आचार्याः. अहम् अधिवक्ता, आवाम् अधिवक्तौ, वयम् अधिवक्ताः.
महोदय, एकवचने किम् अस्ति?
अधिवक्ता. ओ, ओके, ओके, स्त्रीलिङ्ग.
न न न, अत्र दिस् इस् अ रिकारान्त वर्ड्, सो इट् इस् अ रिकारान्त पुल्लिङ्गशब्दः. ओके, इट् इस् अधिवक्तृ, लैक् मातृ, लैक् पितृ. ओके, इट् इस् अ रिकारान्त पुल्लिङ्गशब्दः.
Okay, okay.
So it'll be adivakta, and look at we I think we have done a look at data, it'll be similar to that. So can you...
Okay. Adhivatta, adhivattaram. And adhivattaraha.
Say the complete ones if you can again.
Aham adhivatta avam adhivattaro vayam adhivattaraha.
Samyak. I think quite a few didn't get this, but it's okay. It's like I said, it's the rikaranta.
Is it adhivaktaraha or adhivaktaraha?
Abhivaktaraha. Like, see, data, datara, dataraha. Similar to that.
Adhivaktaraha.
Yeah.
Pitaraha is not ta, right? So, is it?
Yeah,
not
it's less? Different.
Okay.
So, mata and pita will be similar.
Okay.
You can
what
again.
What does it mean by adhivakta? Adhaya?
It's like a lawyer or an advocate, yeah. So look at pita, pitarau, mata, matarau, neta, netarau. You know, there are some subtle differences which you will get used to when we go along.
Okay.
But again, this is like pullinga shabda, right?
Yeah. Right. Adivaktra, adivakta.
But pullinga and strilinga, both it shows that dictionary.
That may be a mistake more.
It may be like netru, not like pitru.
Yeah, right. That's what I said. See, pita and mata. See, pita and mata are slightly different. So it'll be like neta.
Anyway, it's a rikaranta.
Yeah, but it's a rikaranta.
It is also similar to karta, like it is stated on page 13. Karta.
Yes, karta. Yeah.
धन्यवादः
अग्रिमं करोतु महोदय
त्वं कौन्तेयः युवां कौन्तेयौ यूयं कौन्तेयाः
सम्यक् धन्यवादः भूमि भगिनी अग्रिमं करोतु
आं महोदय नमस्कारः त्वं त्वं गुरु युवां गुरु यूयं गुरवः
एकवचने किम् अस्ति
गुरुः सोरि
गुरुः
गुरुः त्वं नायकः युवां नायकौ यूयं नायकाः अहं भक्तः आवां भक्तौ वयं भक्ताः
सम्यक् धन्यवादः
धन्यवादः
जया भगिनी अग्रिमं करोतु
अहं भक्तः अहं
अग्रिमं भगिनि
अहं शिष्यः आवां शिष्यौ वयं शिष्याः अग्रिमं महोदय त्वं बुधः युवां बुद्ध्यौ यूयं बुद्ध्याः.
पुनः वदतु.
त्वं बुधः युवां बुद्ध्यौ यूयं
बुद्ध्यौ. किमर्थम् रामः द्विवचने किं भवति?
रामौ रामौ.
आम्.
बुधौ बुधौ बुधौ.
आम्.
बुधौ बुधाः.
पुनः वदतु पूर्ण.
त्वं बुधः युवां बुधौ यूयं बुधाः. बुधाः. त्वं सेनापतिः युवां सेनापती यूयं सेनापतयः.
सम्यक्. धन्यवादः.
धन्यवादः महोदय.
एकनिमिषं. शेर् समथिङ्ग् वित् यू. So we have used it, but I just wanted to show you this. Prathama Purusha, Madhyama Purusha and Uttama Purusha. Okay, Madhyama Purusha we have not seen in detail. Tvam, Yuvam, Yuyam. Tvam Ekavachanam, Yuvam Dvivachanam, Yuyam Bahuvachanam. And Uttama Purusha, Aham, Avam, Vayam. So all this what we have seen, the other saha, sa, bhavan, bhavati, it's all prathama purusha. Okay. Rajshri Bhagini, lik dhatuhu kinchit patatu.
Lik.
Let me see. Can you see here at the bottom?
Likati, likataha, likanti, likhasi, likataha, likatha, likami, likhavaha, likhamaha.
That is the vartamanaka, the present tense. Okay, Prathama Purusha, Madhyama Purusha, Uttama Purusha. Rameshwari Bhagini, Atra Upayujya, Vadatu.
Saha Likhati, Tau Likhataha, De Likhanti, Tvam Likhasi, Yuvam Likhataha, यूयं लिखथ. अहं लिखामि. आवां लिखावः. वयं लिखामः.
उत्तमं. धन्यवादः भगिनि. सरस्वती भगिनी, अत्र दृष्ट्वा पट्टधातुः वदतु.
महोदय.
सः पठति, तौ पठतः, ते पठन्ति, त्वं पठसि, युवां पठतः, यूयं पठत, अहं पठामि, आवां पठावः, वयं पठामः.
सम्यक्, उत्तमं, धन्यवादः भगिनि. सुबोध महोदय अस्ति वा?
आम् महोदय.
भवान् गच्छ धातुः लट् लकार वदतु.
हा महोदय, सः गच्छति, तौ गच्छतः, ते गच्छन्ति, त्वं गच्छसि, युवां गच्छतः, यूयं गच्छत, अहं गच्छामि, आवां गच्छावः, वयं गच्छामः.
सम्यक्, धन्यवादः महोदय.
धन्यवादः.
सो प्लीस् नोट्, मोस्ट् आफ् द वर्ब्स् विल् फालो दिस् सेम् पेटर्न्. So we'll start using the Dvivachanam and the Madhyama Purusha. So it is not used that much, but for the sake of getting used to it, because it is used quite frequently in the Bhagavad Gita, so we have to get to know it also. उषा भगिनि, भवान् भगिनि, आर् यू यूसिङ्ग् वाट् आर् यू आन् आर् यू यूसिङ्ग् अ ब्लूटूत् हेड्सेट्
नो नो इट्स् ओन् दि कनेक्टेड् वन् ऐ केन् रिमूव् द हेड्सेट्
नो 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 बिकास् देर् सीम्स् टु बि सम् डिस्टर्बेन्स् व्हेन्
Okay, so I will stay on. No problem.
Okay, Vaibhavi Bhagini, vadatu.
Aam mahode.
For kridati, you say, can you say for Bhavan?
भवान् क्रीडति. ओके, भवान् क्रीडति, भवन्तौ क्रीडन्तौ, भवन्तः क्रीडन्ति,
भवन्तौ अत्र किम् अस्ति?
भवन्तः क्रीडन्तः.
नो नो, फर् द्विवचनं से इट् अगेन्.
भवन्तौ
जस्ट् से द लट् लकार ओन्ली फर् क्रीडति, से द फुल् थिङ्ग् इफ् यु केन्.
क्रीडति, क्रीडति, क्रीडन्तौ, क्रीडन्ति,
क्रीडतः. केन् यु सी द स्क्रीन् भगिनि हियर्?
या, ऐ केन्
सी देयर् इस् लिखति इस् देयर् रैट्. सो क्रीडति विल् फालो द सेम् पेटर्न्.
क्रीडति, क्रीडतः, क्रीडन्ति, क्रीडसि, क्रीडतः, क्रीडतः, क्रीडामि, क्रीडावः, क्रीडामः.
सम्यक्, क्रीडामि, क्रीडावः, क्रीडामः. ओके, सो आल् दीस् आर् द क्रियापदम् क्रियापदानि. So they will follow this form. Okay. The bhavan, bhavantav, bhavantah, those are the noun forms which have the vibhakti tables. So don't get confused between the two.
Okay.
Dhanyavaad bhagini. चित्रा भगिनी पश्यति वदतु.
हा महोदय. पश्यति, पश्यतः, पश्यन्ति, पश्यसि, पश्यतः, पश्यत, पश्यामि, पश्यावः, पश्यामः.
धन्यवादः.
धन्यवादः महोदय.
उषा भगिनी प्रयत्नं करोतु.
आं महोदय.
You can say for Bhavan, khadati. You can say khadati.
Bhavan khadati. Bhavantau khadatah. Bhavantah khadanti.
Madhyama purusha. मध्यमपुरुषः वदतु भगिनि.
मध्यमपुरुषः त्वं खादसि, युवां खादतः, यूयं खादत, त्वं खादामि, आवां खादावः, वयं खादामः.
धन्यवादः भगिनि.
धन्यवादः.
So please note, for Madhyama Purusha and Uttama Purusha, it's only what is given on the screen. Tvam, Yuvam, Yuyam for Madhyama Purusha, and Aham, Avam, Vayam for Uttama Purusha. Only the Pratama Purusha can have lot of these variations, including names, right? Like Ramaha, Rama, Sita, Krishnaha. So all that is Pratama Purusha. Okay. So there was another part to the homework. Sahitya Bhagini. Can you say the first two lines, what you have written?
Dhanikanam grihani unnatani bhavanti. Jananam ruchihi vibhinna bhavanti.
Dhanyavada. Did I miss it? It was not.
I think you asked to write singular Ekavachanam, I think.
Yeah.
I kind of wrote both. I wasn't sure my I can try the singular.
Even I wrote both singular and bahuvachana.
So who is this? Himangi Bagini.
Yeah.
I don't see you on the. That's why I didn't call you. I didn't see you in the list.
Is it?
Have you?
Oh, I'm not sure why. I'm not sure, Mahodaya, why.
Oh, okay.
I think she has come as PDKM as sanskritabharati.ca.
Oh, is it? Oh, I'm sorry. By mistake.
Oh, okay.
Yeah.
I was wondering who that was. Okay, so you logged in as somebody else, huh? I mean, some other email?
Yeah, probably, I guess. There is some mistake today. I'm sorry.
Okay. Chinta mastu. So, say 1 and 2 in Ekavachanam.
Astu. Dhanikasya Gruham Unnatam Bhavati.
Ah, samyak.
Janasya Ruchihi Vibhinna Bhavati.
Ah, samyak. Dhanyavada.
One question, Mahodaya.
I also have one question because Unnat is supposed to be noun or adjective, right? So how come unnatam, unnat, there are...
Bhumi Bhagini, Purna Vakyam Ekavachane Vadutu.
So Dhanikasya Graham Unnat Bhavati. That's what I write it down because I thought unnat is adjective, so there can't be... three roop, like ekvachan, dvivachan, bahuvachan. That's what I thought.
It has to follow. So, lingam, vachanam, vibhakti, samanam, eva. So, can you say in ekavachanam?
Yeah, ekvachanam, if we follow this, then it should be unnatam. But I thought it's an adjective only, so there won't be any three roop of unnat. Unnat. So I thought there should be the mistake like unnatani. So I was not sure like why unnatani.
Yeah. So shrunotu bhagini. So dhanikasya graham unnatam bhavati. That will be in ekavachanam. Unnatam. It has to follow because it is the adjective. It has to follow the. It is the adjective of the graham, hello? So, unnatani grahani or unnatam graham.
Yeah, so that's what my question is, that the adjective also has to follow, the adjective also will also have like three roop or we have to use it.
Samyak, exactly, okay. Yeah.
Okay, yeah, then it will be unnatam, okay.
Yeah.
Because I thought it's like only for a noun, like graham and all that, not for the adjective. So that's
No. Adjective has to follow the lingam, vachanam, everything of the karma padam or visheshyam.
Okay. Krishna Harpade.
Dhanyavad.
Prashna.
Dhanikata. Ekamapi na bahuni grihani api santi. So dhanikasya unnadani bhavati, dhanikasya grihani unnadani bhavanti.
Yeah, but I said to tell this whole sentence in ekavachan. Both are right. Yeah.
Okay.
Yeah. Dhanikasya to bahuni grihani santi. Anita Bhagini, Tritiya Vakyam Patatu.
Mahodaya. Balakaha Balakanam Kola Halena Adhyapakaha Kupitaha.
Ekavachane.
Balakasya Kola Halena Adhyapakaha Kupitaha.
Samyak. Aparna Bhagini, the same sentence can you say in Strilinge?
इन् एकवचनं बालकस्य कोलाहलेन अध्यापकः कुपितः.
स्त्रीलिङ्गे वदतु.
बालिकयाः एकवचनं स्त्रीलिङ्गम्.
एकवचनं बहुवचनमपि वदतु.
बालिकस्य कोलाहलेन अध्यापकः कुपितः. बालिकयाः कोलाहलेन अध्यापकः कुपितः. बालिकानां
एकवचने किम्?
एकवचने बालिकस्य.
बालिका खलु, बालिका.
बालिकाया कोलाहलेन.
बालिकायाः
कोलाहलेन अध्यापकः कुपितः. एण्ड् देन् बालिकानां कोलाहलेन अध्यापकः कुपितः. धन्यवादः.
धन्यवादः भगिनि. बालकृष्णमहोदय अग्रिमं प्रयत्नं करोतु.
भवतः व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः.
पुनः वदतु महोदय.
एकनिमिषं. भवतः व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः.
स्मः. बहुवचने किं भवति?
भवन्तं व्यवहारं दृष्ट्वा.
भवन्तं वा? भवतः, भवतोः, भवताम् खलु. अत्र नास्ति.
भवतां व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः.
सो इफ् यु गो टु द गीतासोपानं लास्ट् पेज् ऐ थिङ्क् इट् इस् देयर.
भवद्भ्यः. भवद्भ्यः
पेज् नम्बर् 201 महोदय. 201
इट्स् भवताम्.
भवतां. सम्यक्
भवतां.
षष्टि भवता.
पठतु महोदय. Can you read the whole table slowly?
Bhavan table.
Bhavan, yes.
Bhavan, bhavanto, bhavantaha. He bhavan. Sambodhana. Bhavantam, bhavanto, bhavataha. Bhavata, bhavadhyam, bhavadbihi. Bhavate, भवद्भ्यां, भवद्भ्यः, भवतः, भवद्भ्यां, भवद्भ्यः, भवतः, भवतो, भवतां, भवति, भवतोः, भवत्सु.
सम्यक्. Okay, give me a minute. Let me get back to where we were. धन्यवादः महोदय. माधवी भगिनी अस्ति वा?
महोदय, जस्ट् अ क्विक् क्वश्चन्, इन् द सेण्टेन्स् भवतः व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः इस् बिकास् इट् इस् आफ् वयं, रैट्? सो इफ् वी हेव् टु चेञ्ज् दिस्, भवतः व्यवहारं दृष्ट्वा अहं सन्तुष्टः स्म. That is how we have to change to singular.
For aham, what will it be?
Santushtaha.
Santushtaha. Instead of smaha, what will it be?
Asmi.
Asmi.
Asmi. Asmi. Okay. Asmi. Swaha smaha. Okay. Got it. Because it is vayam, it is smaha also.
See here. Kinchat patatu bhagini. Can you see here?
Aam mahodaya.
Read the whole thing, please.
Asti staha santi, asi staha stha, asmi swaha smaha.
Avagatam?
Aam mahodaya.
And smaha, not sma, okay? Karoti sma is what you say for past continuous, but this is smaha, okay?
धन्यवादः.
हेमाङ्गी भगिनी अग्रिमं करोतु.
आं महोदय, ऐ विल् डू बोत् आर् ओन्लि वन्, लैक् एकवचनम् आर् बहुवचनं, द्वे अपि?
डू बोत्.
ओके.
द्वौ अपि करोतु.
द्वौ अपि करोमि. मम कार्यालयः सुविशालः अस्ति. अस्माकं कार्यालयः सुविशालः अस्ति.
सम्यक्.
अग्रिमम् अपि करोमि वा?
करोतु.
अस्तु. भवतः कुञ्चिकयाः गुच्छः कुत्र अस्ति? भवतः
एकनिमिषं भगिनि. सो सीता षष्टी एकवचनं किं भवति?
सीतायाः.
सो कुञ्चिका विल् बिकम् वाट्?
अया कुञ्चिकयाः. कुञ्चिकयाः.
कुञ्चिकायाः.
अया, ओ ऐम् सोरी, कुञ्चिकायाः. या,
पुनः वदतु.
भवतः कुञ्चिकायाः गुच्छः कुत्र अस्ति? भवतः कुञ्चिकानां गुच्छः कुत्र अस्ति?
धन्यवादः.
धन्यवादः.
कुत्र सन्ति खलु?
किं भगिनि?
For the Bahuvachanam, we have to follow everything, right? For the Bahuvachanam. So
this is for Gucchaha. See, Gucchaha is a Ekavachanam. So if you are saying Gucchaha...
Everything, right?
You say in everything Bahuvachanam, Bhagini.
Okay, then Bhavataha... Bhavataha also we have to convert?
Okay. It's up to you. As complicated as you want to make it.
Bhavatam kuntika naam gucchaha putra santi.
Uttamam. So you can make it as easy or complicated as you want. Dhanyavada Bhagini.
Dhanyavada.
रामेश्वरी भगिनी वदतु अग्रिम.
एषु दिनेषु वस्तुनः मूल्यम् अधिकम्. एषु दिनेषु वस्तूनां मूल्यम् अधिकम्.
दीर्घं
वस्तूनां.
महोदय,
येषु विभक्ति किं येषु षष्टिविभक्ति
दिनेषु किं किम् अस्ति
दिनेषु सप्तमी विभक्ति बहुवचनम्
सो येषु विल् बी वाट्
सप्तमी विभक्ति बहुवचनं बट् एषः इस्
वचनम्
प्रथमाविभक्ति एकवचनम्
एतेषु इट् इस् द बुक् इट् इस् गिवन् अस् एतेषु
एषु इस् फर् इदम् इदम्
एकनिमिषं सः सः
गीतासोपानं पेज् 200 मकारान्तपुल्लिङ्ग इदं शब्दः एषु बहुवचन
ओर् यू केन् यूस् सः आल्सो तेषु ओके
ओके ओके थैंक यू
या सो देयर आर या वी आई डोंट थिंक वी हैव कवर्ड द इदं शब्दः
महोदय वस्तु वस्तु शब्द हाउ डज इट वर्क
Vastu is the ukaranta napunsaka linga shabda. So you can see
Vastu Vastuni Vastuni
Madhu as Madhu. One more up. Yeah, Madhu.
Yeah, I'm not able. Yeah.
एकवचन षष्ठी एकवचन विल् बी वस्तुवः वस्तुवः
सी हियर् केन यू सी यस मधुनः सो व्हाट विल इट बी
सो वस्तुनः ओनली ओके 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 गॉट इट
सो लाइक आई सेड इन वन ऑफ द अर्लियर क्लासेस your main focus should be what is the is it akaranta ukaranta ikaranta and what is the lingam so once you figure that out then you if you can remember one of each okay then it will become easier
astu mahoday
Slowly we'll get there. As you keep, that's why, see, in this level onwards, you need to do a lot of exercises. So in the Gita Sopanam, there are so many of these exercises. So try to complete, and they are all very similar, but as you keep doing them, see, like here, Shrota, Shrota Rao, Shrota Raha. So you'll get familiar with all of them. So please try to do as many exercises as you can. And then here you will get familiar with Vam, Avam and all these. Yeah, it looks repetitive, but they are all a little similar sounding words. So once you do the exercises, it will become more, let's say, easier. Before I forget, so next week is Deepavali. Okay, so I just wanted to take a minute here to see. So it is the 13th night here and 14th morning in India. So I was thinking, is everyone agreeable to that we skip the class for next week
yes.
on account of Deepavali.
Yes.
Okay. So we'll do some extended Grahapatam. And one of the things, okay, on account of Deepavali, if we can do 2, 3, and 4, okay, here. So for this, you have to refer the Bhagavad Gita. Okay. And here it is Gita-yaha etat-sankhya-keshu श्लोकेषु अहम् इति शब्दम् अन्वेष्यत. So you have to look for aham in these shlokas. And by this it is chapter 7 verse 25, 8, chapter 8 verse 4 and so on. So do this exercise and similarly look for bhavan in these shlokas and then tvam in these shlokas. So sometimes there will be kind of a sandhis and, combined words. But try to find it. It should be simple for you. This will be a good exercise. So please do this, 2, 3, and 4. Hopefully, all of you have a copy of the Bhagavad Gita. Otherwise, you can go to that Gita super site that the URL was sent to you in one of the Adhyayana Samagri earlier. Okay, so please do this.
And if you Google it, saying Gita 7.25, that shlok will come.
Okay. That is the simplest, but I would like you to go to the actual Gita and do it if possible. If not, yeah.
Okay.
Uttamam Bhagini, you are giving away all the secrets. So
Mahodaya, we just need to write how many times aham has come in these shlokas, right?
You don't have to write. And we won't discuss this in detail yet, but try to see if you can find the word aham. So, for example, in 7.25, I think it is in the first word itself.
Okay. Can we underline that?
Yeah, sure.
Yeah.
The main thing is if you can recognize the
word.
Mahoday, atra mudrana dosha asti. Tvam shabda, 2.26 and 2.27, it should be... Oh, okay. So some book has a 2.16 instead of 2.26. And instead of 2.27, some book has 2.17. So that those books have mudran dosha.
I have 2.16.
So it should be 2.26. And that 2.27 also.
Yeah. I mean, as we have seen, some of the earlier versions have some minor the printing mistake or whatever it is. And then they have corrected. Even on this, there were one or two which somebody said the newer version has been corrected. So try as many as you can. Okay. Agree, Salamaha. So has anybody, again, let me just check. Did I miss anyone to read out their homework or anything? No, has anybody not spoken today who would like to speak?
Mahoday, just have one question in Vibhakti Vallari. Just one sentence in the fifth exercise. I forgot to ask last time if we can do it.
In which one, Bhagini? Vibhakti Vallari?
In the Vibhakti Vallari, the Panchami Vibhakti, there was just one sentence. I couldn't understand the meaning. On the page 45. Yeah, that one, the last one, dhanebhyaha. So dhanebhyaha, then dadhi uttamam navanitam praknumaha. So the panchami is dadibhyaha because we have to do in bahuvachan. So I couldn't understand the meaning. Dhanebhyaha dadibhyaha uttamam navanitam praknumaha. So I thought it can be like dhanikaha I don't know. I couldn't understand.
Oh, this is, it's not gha, it is ghani. Ghanebhyah. Ghanebhyah means what? Thick. Okay? Ghanebhyah dadi.
So, Ghanebhyah is also in the Panchami? Or Shashti? Oh, okay. So, Ghanebhyah means dhani cars, right? So,
Ghanebhyah, bhagini. Like ghar, you say ghanebhyah.
Ghar, no ghar. Okay. So, ghanebhyah, dadibhyah. Okay.
So thick or dense, you can say. Ghanebhyah, dadibhyah, uttamam navanitam prapnumaha.
Okay. So, with thick milk, we get the uttam navanitam.
Curd bhagini. Not milk.
Yeah,
yeah.
Because I was thinking dhanebhyah, dhanebhyah, that's why. Yeah, thank you. Dhanyavad.
Okay, and before I forget, and this is mainly for North American folks, so we are having Thanksgiving, okay? So we will not be giving holiday for Thanksgiving. So hopefully nobody is planning to take a long weekend. I don't think you can go to too many places.
Corona vishanu anumati na dalati.
Corona kale kutra gantam. Graheva tishtami. So yeah, so that Friday we will be having class. So just FYI. And anyway, now New Year's and Christmas also is there, so maybe we'll miss another weeks. So we don't want to miss too many classes. But anyway, next week we'll be off. Okay. Agre saramaha. Lagu Kata Pashyama.
Maitat Katam Patamaha Upayena Shakyam Sarvam. Okay, upayena shakyam sarvam. Sarvam karyam kartum shaknumaha upayam asti chet. Upayam karoti chet. Edat katayaha saramchaha arambam karomaha. Okay, Rameshwari bhagini vakyadvayam patatu arambe.
कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म सः अतीव शक्तिशाली भासुरकः प्रतिदिनम् अनेकान् मृगान् विना अनेकान् मृगान् विना कारणं मारयति स्म. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म.
धन्यवादः भगिनि. सो कश्चित् अरण्ये कुत्रचित् अरण्ये भासुरकः नाम सिंहः वसति स्म. सिंहः सर्वे जानाति. सिंहः वसति स्म. सः अतीव शक्तिशाली बलवान् आसीत्. सः सिंहः बहु बलवान् आसीत्. भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म. अनेकान् मृगान् सः मारयति स्म. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवति. कष्टेन सर्वे कष्टेन भयेन जीवितवन्तः तत्र. तदा सारांशः अग्रिम पदच्छेदं अपर्णा भगिनी द्वितीयपरिच्छेदं वाक्यद्वयं पठतु भगिनि.
आं भगिनि. अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः, स्वामिन् विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः? एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल? अतः अद्य आरभ्य.
धन्यवादः भगिनि. धन्यवादः भगिनि. अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तौ. एकदा किम् अभवत्? सर्वे मृगाः भासुरकस्य समीपे गतवन्तः, प्रार्थितवन्तः अपि. स्वामिन् विना कारणम् एव मृगाणां मारणेन भवतः कः लाभः? किं मारयति सर्वे मृगान् किं मारयति इति पृष्टवन्तः. एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल? एकस्य एव मृगस्य खादने, भवान् एकं मृगं खादयतु एकदिने, उदरं पूर्णं भवति इति. बालकृष्णमहोदय अग्रिमम्.
अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः, भवान् तं मृगं खादतु, अन्यान् मृगान् न पीडयतु इति.
धन्यवादः. अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः. एकम् उपायं कृतवन्तः सर्वे मृगाः. अद्य आरभ्य, ओके, फ्रोम् टुडे, भवतः आहारार्थं प्रतिदिनम् एकं मृगम्, ओके, एकमेकं मृगम् एकदिनं प्रतिदिनं भवान् तं मृगं खादतु, वयमेव चिनुमः, प्रेषयिष्यामः इति. अन्यान् मृगान् न पीडयतु, अन्यान् मृगान् न मारयतु, न विना कारणं मारयतु इति.
एकः प्रश्नः अस्ति सरस्वती भगिनी, आहारार्थं किम् अस्ति?
आहारार्थं फार् द सेक् आफ् फुड्.
चतुर्थी विभक्ति किम् अस्ति, किञ्चित् वदति वा?
आहार चतुर्थी विभक्ति आफ् आहारम्.
आम्,
आहारम् आहाराय.
सम्यक् भगिनि. सो इट् इस् द सेम् लैक् वि ऐ थिङ्क् वि हेड् एक्स्प्लेन् आहारार्थं चतुर्थी दर्शयति. ओके, सो इफ् यु आर् नाट् श्योर् यु केन् आल्वेस् यूस् अटनार्थं, भ्रमणार्थं, पठनार्थम्. ओके, धन्यवादः भगिनि.
धन्यवादः.
एण्ड् अगेन् ऐ एम् जस्ट् ऐ एम् टेलिङ्ग् आल् आफ् यू, सो वेन् यु आर् इन् अ पर्सन् टु पर्सन् क्लास् यु केन् लुक् एट् पीपल् एण्ड् आस्क् यु नो, looking at their body language if they know or don't know, but here I'm just picking names. Okay, so if you don't know, you can always say you don't know, but you have to try to answer. Okay.
Ajay Mahoday, I didn't get your question actually, what you were trying to ask.
So if you can look at this word ahararartham. Okay. So, please read that sentence, Bhagini.
Atah adya arabhya bhavatah arararartham ahararartham pratidinam ekam mrugam vayam eva preshayishyamah.
किञ्चित् अर्थं वदतु, आङ्ग्लभाषायां वदतु.
सो फ्रोम् टुडे, स्टार्टिङ्ग् फ्रोम् टुडे, भवतः यु आहारार्थं फोर् मै मै फुड्
भवतः इस् वाट् भवतः
भवतः मीन्स् यु
नो भवतः इस् षष्ठी विभक्ति खलु सो युवर्
सो युर्
आहारार्थं मीन्स् फार् युर् फुड्
फार् युर् फुड् एव्रि डे वन् डियर् वयमेव प्रेषयिष्यामः सेण्ड् मी वन् डियर् एव्रि डे
इट् केन् बि एनिमल् एकं मृगं वयमेव प्रेषयिष्यामः वाट् इस् प्रेषयिष्यामः
ऐ विल् सेण्ड्
सो वाट् what call what tense is it
bhavishyakal
bhavishyakal bhavishyakal
okay
so aharartham I told bhagini to say the actual chaturthi form
okay
so it is aharam ahara what will be for aharam what will be the chaturthi
रामाय सो
आहाराय सो दट् वास् मै क्वेश्चन्
ओके ओके सो सो यु आर् सेङ्ग् द मीनिङ्ग् विल् बि द सेम् फोर् आहारार्थम् और् आहाराय
या एक्साक्ट्लि या
ओके ओके
सो जस्ट् लैक् यु हव् सीन् गृहतः एण्ड् गृहात्
Grahat.
Okay,
yeah.
Those are also, they mean the same thing, but Grahat is the actual Panchami, and Grahataha we can use to show Panchami.
Okay, now I got it.
Dhanyavad.
Yeah.
So, Anita Bhagini? In the first sentence, can you say what is the Saptami?
Aranya.
Any other?
In that sentence, Kasminchit Aranya Bhasurakah.
Kasminchit also is a Saptami. Samyak Bhagini. उत्तमम् अपर्णा भगिनी भवान् केन् यु रीड् दिस् सेण्टेन्स्
भवान् तं मृगं खादतु
सो वाट् इस् तं द्वितीया
एकवचनं
सम्यक् एण्ड् खादतु वाट् फार्म् इस् इट्
it is the order request
what is it called lot lakar okay khadati will be lat lakar
present
so we should start slowly getting used to these terms lot lakar
so it is ajna and prarthana
ajna prarthana yeah
okay ओत् ओके आं महोदय
धन्यवादः ओके अग्रे सराम
वैभवी भगिनी पठतु तदा अग्रिमपरिच्छेदं पठतु भगिनि
तदा भासुरकः उक्तवान् तथैव अस्तु, परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव इति.
धन्यवादः भगिनि. तदा किम् अभवत्? तदा भासुरकः उक्तवान्, भासुरकः उक्तवान् किं वदति? तथैव अस्तु, मीन्स् लेट् ओके ओके, अङ्गीकृतवान् सः. तथैव अस्तु, परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि. परन्तु इफ् देर् इस् नो एनिमल् कमिङ्ग् एनी डे, ओके, देर् इस् नो एनिमल् कमिङ्ग्, देन् ऐ विल् किल् आल् द एनिमल्स्. देट्स् वाट् द भासुरक सेस्. All the bhavishat agamishyati marayishyami, all the lat lakara bhavishat kalam vadati tatra. Agrimam Jaya bhagini, agrima padachedam patatu. Mrugaha
Mrugaha tat angi krutavantaha tataha आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म. भासुरकः तं खादति स्म. अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
तत्र किम् अभवत्? मृगाः तत् अङ्गीकृतवन्तः, सर्वे अङ्गीकृतवन्तः, मृगाः अपि. ततः आरभ्य प्रतिदिनं, सो ततः आरभ्य फ्रम् देट् डे, प्रतिदिनं जातिक्रमेण, जातिक्रमेण इत्युक्ते वर्गम् इत्युक्ते स्पीसीस् फेमिलि किमपि, जातिक्रमेण एकः मृगः, एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म. ओके, सो आहारत्वेन इत्युक्ते आहारस्य कृते, फार् द फार् एस् अ फुड् गच्छति स्म. भासुरकः तं खादति स्म, सो भासुरक यूस् टु ईट् हिम्. अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म, आल् द तं खादति स्म, सञ्चरति, पास् कण्टिन्यूस्, ओके, गच्छति स्म. We have seen in the Prathamastare Drishtavanta, okay? Past continuous. Anne mraga nirbhayena, without any fear, aranne sanchagantisma. They were roaming without any fear.
So, Bhagini?
Haan, vadatu.
Here, aharatvena means tritiyava?
Tritiyam darshayati, Bhagini. For, yeah.
Tritiyam
darshayati. एव नास्ति, परन्तु तृतीयं.
ओके, क्विज़् टैम्. सुबोध् महोदय, केन् यू रीड् दिस्? इफ् यू केन् सी मै कर्सर्, केन् यू रीड् दट् सेण्टेन्स् महोदय? परन्तु
यस्मिन् दिने मम समीपं मृगः न आगमिष्यति तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव इति.
किञ्चित् सप्तमी विभक्ति अस्ति एव तत्र, किञ्चित्
यस्मिन् तस्मिन् दिने.
भविष्यत्काले अस्ति वा किमपि?
आगमिष्यति, मारयिष्यामि,
मारयिष्यामि
एण्ड् आगमिष्यति.
सम्यक् महोदय,
धन्यवादः.
धन्यवादः. भूमि भगिनी अग्रिमं पठतु.
मृगाः तत् अङ्गीकृतवन्तः. ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत् नवी आलरेडी हैव रीड दिस वन राइट सो कदाचित् जातिक्रमेण फ्रॉम देयर
आम आम
ओके सॉरी कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम्. सः शशकः दुःखेन सिंहसमीपं प्रस्थितवान्. मार्गे एकः कूपः आसीत्.
सम्यक् धन्यवादः
धन्यवादः.
सो चित्रा भगिनी अत्र भूतकालरूपं वदतु किञ्चित्.
कदाचित् जातिक्रमेण किञ्चित् शशकेन भूतकालम्
can you say the word in the past tense?
Yeah, yeah. गन्तव्यं नहीं
ना गन्तव्यं ना
न न प्रति प्रस्थितवान् प्रस्थितवान् भूतकालं.
जातिक्रमेण डू यू नो व्हाट इट
इज या या जातिक्रमेण मतलब दैट्स हाउ द विच वे द animals are they have to go according to the jati
so what my question is what vibhakti will it be
jati kramena sorry mahoday I couldn't say that
chinta mastu
triti
जातिक्रमेण. So if you look at okay bagini kripya mute madhye gachhu. So like here okay Ramena. Since there's a rakaranta there, it is dhanna. Otherwise, it will be like vanena. Okay. Is that the end of it? साहित्या भगिनी अग्रिमं पठतु. कूपस्य उपरि
गमनसमये शशकः
एकनिमिषम्
पठतु भगिनि. स्वस्य
प्रतिबिम्बं तत्र दृष्टवान् तदा तस्य मनसि कश्चन उपायः
स्फुरितः.
अहं बासुरकम् एतस्मिन् कूपे पातयिष्यामि इति चिन्तयन् सः विलम्बेन बासूरकस्य समीपं गतवान्.
धन्यवादः भगिनि.
धन्यवादः.
अत्र कदाचित् जातिक्रमेण केनचित् चषकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम्. इट्स् लैक् अ पासिव् वाय्स् हियर्. सो वन् डे जातिक्रमेण लैक् वि थाट् इट्स् लैक् अकार्डिङ्ग् टु देर् स्पीसीस् केनचित् चषकेन. सो देर् वास् in saransham ityukte there was a rabbit, so that was a turn of that rabbit to go. Gantavyam apattam, it fell upon that rabbit to go that one day. Saha shashakah dukhena simha samipam prastitavan. He started towards the lion. Okay, dukhena simha samipam prastitavan. मार्गे एकः कूपः आसीत्. ओके, एकः कूपः इत्युक्ते वेल्. कूपस्य उपरि गमनसमये चषकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान्. सः शशकः स्वस्य प्रतिबिम्बं, स्वस्य इत्युक्ते हिज़् ओन्, स्वस्य प्रतिबिम्बं तत्र कूपे दृष्टवान्. हि लुक्ड् एट् हिज़् प्रतिबिम्बम् इमेज्, हिज़् ओन् इमेज् इन् द वेल्. तदा तस्य मनसि कश्चन उपायः स्फुरितः. सो वेन् देन् इन् हिस् मैण्ड् कश्चन सम् उपायः, उपायः मीन्स् प्लान्, रेमेडि, सम् प्लान् हि स्फुरितः, मीन्स् उद्भवितः, यु केन् से इट् एरोस्. ओके, अहं भासुरकम् एतस्मिन् कूपे पातयिष्यामि. ओके, ऐ अहं भासुरकं, सो ऐ विल् मेक् द लायन् फाल् इन् दिस् वेल्. ओके, पातयिष्यामि मीन्स् हि विल् मेक् हिम् फाल्. ओके, पतितं पातयितं, पठति पाठयति, समथिङ्ग् लैक् देट् कारकम् इत्युक्ते दे हि मेक्स् हिम् फाल् इति चिन्तयन्. So it's a continuous. Iti chintayan saha vilambena bhasurakasya samipam gatavan. So he went to him very late. Okay? He went to him very late. So atreva sthagayam, sthagayama vilambha jata iti. So I think we can continue next week. प्रथमम् उक्त्वा
वेल् नेक्स्ट् वीक् देर् इस् नो क्लास् बट् द वीक् आफ्टर् डस् एनिबडि हेव् एनी क्वेश्चन्स् बिफोर् वी एण्ड् अदर्वैस् वील् बि मीटिङ्ग् इन् आन् लेट् मी सी द डेट् otherwise we'll meet on the 20th or 21st.
Mahodaya, did you say that we have to do the exercise 5 on page 16 too, or only 2 3 4?
2 3 4 5. Let me see what is 5.
You said abhyasam karoto.
Yeah, I mean it is good if you do as many as you can.
Okay.
Okay, this is just to, so that you become very familiar with Tvam. See, we have not done too much. So this is the time when you have to start getting used to Tvam. And if you can look at this, Tvam also has the Vibhakti table. Okay. So slowly you can start getting familiar with this. Tvam, Yuvam, Yuyam, up to Tvayi, Yuvayoho, Mashu. Yes, ma'am. Okay. Any other questions? Okay.
So anybody has Bhasha Darshini class started? Anybody is going? I think it's not yet started. Anyway, okay. Om sarve bhavantu sukhinah, sarve santu niramayah, sarve bhadrani pashyantu, ma kashchit dukha bhag bhavet. Om shanti shanti shanti. Dhanyavada.
धन्यवादः
शुभरात्रि दीपावली
शुभाशयाः